नमस्कारः अद्य वैयाकरण भूषणसारस्य धात्वर्थ प्रकरणे एकादशः पाठः फेब्रवरी मासस्य चतुर्दशः दिनाङ्कः येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् श्रीलक्ष्मीरमणं नौमि गौरीरमणरूपिणं स्फोटरूपं यतः सर्वं जगदेतद्विवर्तते। धात्वर्थप्रकरणे भट्टोजीदीक्षितानां प्रथमकारिकायाः व्याख्यानम् अधीयमानमस्ति अस्माभिः। फलव्यापारयोर्धातुः आश्रयेतु तिङस्मृताः, फले प्रधानं व्यापारः, तिङर्थस्तु विशेषणम् इति कारिका। तत्र प्रथमपादेन फलव्यापारयोर्धातुः इत्यनेन धातुः फलस्य व्यापारस्य च वाचकः इति वैयाकरणसिद्धान्तः उच्यते। तत्र फलशब्देन विक्लित्यादि पारिभाषिकं फलम् तद्धात्वर्थजन्यत्वे सति अथवा तद्धात्वर्थप्रयोज्यत्वे सति तद्धात्वर्थत्वं फलत्वम् इति परिभाषितं विक्लित्यादिकं विवक्ष्यते, न तु उद्देश्यमात्रम् इत्युक्तम्। व्यापारश्च भावनापरनामकः, साध्यत्वेन अभिधीयमाना क्रिया। क्रिया द्विविधा, साध्यक्रिया सिद्धक्रिया चेति। तत्र धातुना साध्यत्वेन रूपेण, साध्यत्वं नाम क्रियान्तराकाङ्क्षा अनुत्थापकत्वं साध्यत्वम्। यत्र क्रियान्तरस्य आकाङ्क्षा नोदेति सा क्रिया साध्यक्रिया इत्युच्यते। तादृशी क्रिया एव धातुना उच्यते इति सिद्धान्तः। तदेव वाक्यपदीये गुणभूतैरवयवैः समूहः क्रमजन्मनां बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते इति कारिकया भर्तृहरिणा उक्तमस्ति। क्रिया नाम समूहः, अवान्तरक्रियाणां समूहः। कीदृशास्ते क्रमजन्मनः, अर्थात् क्रमशः येषां व्यापाराणां जन्म सम्भवति तादृशानाम् अवान्तरव्यापाराणां समूहः। तत्र अवयवाः नाम प्रत्येकं व्यापारोऽपि गुणभूतः अथवा अप्रधानः, समूहस्यैव प्राधान्यं, तस्यैव क्रिया इति व्यवहारः। बुद्ध्या प्रकल्पिता भेदः, यद्यपि प्रत्येकम् अवान्तरक्रियायाः ज्ञानं भवति, तस्य च तत्तद्रूपेणैव वाचकत्वम् अङ्गीकृतम्, तथापि बुद्ध्या अनुगमकस्य बुद्धिविशेषस्य सत्त्वात् एका क्रिया इति समूहे व्यवहारः क्रियते। आश्रये तु तिङस्मृताः, फलव्यापारयोः आश्रये। तिङ् प्रत्ययाः शक्ताः, अर्थात् तिङ् प्रत्ययानाम् आश्रये शक्तिः। तत्र फलाश्रयः कर्म, व्यापाराश्रयः कर्ता, एवञ्च कर्तृकर्मणि तिङर्थः इति इत्यपि वैयाकरणसिद्धान्तः। फले प्रधानं व्यापारः, तत्र एतेषु सर्वेष्वर्थेषु उपस्थितेषु परस्परं सम्बन्धः कारिकायाः द्वितीयार्धेन उच्यते। फले प्रधानं व्यापारः धातुना अर्थद्वये फलरूपे व्यापाररूपे च अर्थे उपस्थापिते फलनिरूपितप्राधान्यं व्यापारे अस्ति। व्यापारनिरूपितम् अप्राधान्यम् अथवा गौणत्वं फले विद्यते। फलं व्यापारे विशेषणम् अनुकूलत्वसम्बन्धेन, अत एव विक्लित्यनुकूलः व्यापारः, उत्तरदेशसंयोगानुकूलः व्यापारः इत्येवं फलं सर्वदा व्यापारे विशेषणत्वेन अनुकूलत्वसम्बन्धेन अन्वेति। तिङर्थस्तु विशेषणम्, तिङर्थः कर्तृकर्मणि इत्युक्तम्, तेन सह संख्या कालश्चापि तिङर्थः। एते सर्वेऽप्यर्थाः विशेषणीभूताः, गुणभूताः। तत्र कर्म फले विशेषणत्वेन अन्वेति। ओदनाश्रया ओदनाश्रयिका विक्लित्तिः, गृहाश्रयिकः उत्तरदेशसंयोगः इत्यादि फले कर्म विशेषणत्वेन अन्वेति। कर्ता ವ್ಯಾಪಾರೆ ವಿಶೇಷಣತ್ವೇನ ಅನ್ವೇತಿ. ದೇವದತ್ತಾಶ್ರಯ ವ್ಯಾಪಾರ, ಮದಾಶ್ರಯ ವ್ಯಾಪಾರ ಇತ್ಯಾದಿ. ತಿಂಗರ್ಥ ಸಂಖ್ಯಾ ತಿಂಗರ್ಥೇ ಕರ್ತರಿ ಏವ ಅನ್ವೇತಿ ಸಮಾನ ಪ್ರತ್ಯಯೋಪಾತತ್ವಾತ್ ಇತ್ಯುಚ್ಯತೆ. ಏತಚ್ಚ ಅನುಭವ ಸಿದ್ಧಂ, ಸಂಖ್ಯಾಯಾಃ ಕರ್ತೃನ್ವಯಃ ಕರ್ಮಾನ್ವಯೋ ವಾ ಅನುಭವ ಸಿದ್ಧಃ. ತತ್ರ ತಿಂಗರ್ಥ ಸಂಖ್ಯಾಯಾಃ ತಿಂಗರ್ಥ ಕರ್ತರಿ ಏವ ಅನ್ವಯಃ ಲಾಘವಾತ್ ಇತಿ ನೈಯಾಯಿಕಮತ ತಿರಸ್ಕಾರ ಪೂರ್ವಕಂ ಕೌಂಡಭಟ್ಟಃ ಸಾಧಯತಿ. ತಿಂಗರ್ಥ ಕಾಲಸ್ತು ಧಾತ್ವರ್ಥೇ ವ್ಯಾಪಾರೇ ವಿಶೇಷಣಂ. ತಿಂಗರ್ಥ ಕರ್ತೃಕರ್ಮಣೋರ್ವಾ ಧಾತ್ವರ್ಥ ಫಲೇವ ಕಾಲಸ್ಯ ಅನ್ವಯಃ ಅನುಭವ ವಿರುದ್ಧಃ ಇತ್ಯಪಿ ಪ್ರದರ್ಶಿತಂ. ಏವಂಚ ತಿಂಗರ್ಥಸ್ತು ವಿಶೇಷಣಂ ಇತಿ ವಸ್ತುತಃ ಪದಾರ್ಥಃ ವಾಕ್ಯಾರ್ಥಃ ಇತ್ಯುಭಯಂ ನಿರೂಪಿತಂ. ತತ್ರ ಅಂತೇ ಕಃ ಸಿದ್ಧಾಂತಃ ಭಾವನಾ ಏವ ಪ್ರಧಾನಂ. ಏವಂಚ ಸರ್ವೇಶ್ವರ್ಥೇಷು ಉಪಸ್ಥಿತೇಷು ಭಾವನಾಯಾಃ ಪ್ರಾಧಾನ್ಯಂ. ತಿಂಗರ್ಥ ಭಾವನಾಯಾಃ ನ ಅಪಿತು ಧಾತ್ವರ್ಥ ಭಾವನಾಯಾಃ ಪ್ರಾಧಾನ್ಯಂ ವೈಯಾಕರಣೈಃ ಅಂಗೀಕ್ರಿಯತೆ ತದಿದಾನೀಂ ಸಾಧ್ಯತೆ ಕೌಂಡಭಟ್ಟೇನ. ಯದ್ಯಪಿ ಪ್ರಕೃತಿ ಪ್ರತ್ಯಯಾರ್ಥಯೋಃ ಪ್ರತ್ಯಯಾರ್ಥಸ್ಯೈವ ಪ್ರಾಧಾನ್ಯಂ ಅನ್ಯತ್ರ ದೃಷ್ಟಂ. ಸಾಮಾನ್ಯತಃ ಅಯಂ ನಿಯಮಃ ಸರ್ವತ್ರ ಶ್ರೂಯತೆ. ಪ್ರಕೃತಿ ಪ್ರತ್ಯಯೌ ಸಹ ಅರ್ಥಂ ಬ್ರೂತಃ ತತ್ರ ಪ್ರತ್ಯಯಾರ್ಥಃ ಪ್ರಧಾನಂ. ಯಥಾ ದಾಶರಥಿಃ ದಶರಥಸ್ಯ ಅಪತ್ಯಂ ದಾಶರಥಿಃ ತತ್ರ ದಶರಥ ಇತಿ ಪ್ರಾತಿಪದಿಕಸ್ಯ ದಶರಥಃ ಅರ್ಥಃ. ಈ ಇತಿ ಪ್ರತ್ಯಯಸ್ಯ ಪುತ್ರಃ ಅಥವಾ ಅಪತ್ಯಮಿತ್ಯರ್ಥಃ. ಯದಾ ಬಹಿರ್ಭೂತ ಗುಣೇ ವಾ ಕ್ರಿಯಾಯಾಂ ವಾ ಅನ್ವಯಃ ಭವತಿ ಯಥಾ ದಾಶರಥಿಃ ಗಚ್ಛತಿ ದಾಶರಥಿಃ ಸುಂದರಃ ಇತ್ಯಾದಿ ತತ್ರ ಪ್ರತ್ಯಯಾರ್ಥಸ್ಯ ಅಪತ್ಯಸ್ಯೈವ ಅನ್ವಯಃ ಭವತಿ ನತು ದಶರಥಸ್ಯ. ಅತಃ ಪ್ರತ್ಯಯಾರ್ಥಸ್ಯೈವ ಪ್ರಾಧಾನ್ಯಂ. ಏವಮೇವ ಪಾಚಕಃ ಇತ್ಯಾದಿ ಕೃದಂತೇಷ್ವಪಿ ಇದಮೇವ ದೃಶ್ಯತೆ. ಅತಃ ಪ್ರಾಯೇಣ ಅಯಂ ನಿಯಮಃ ಅನ್ವೇತಿ ಪ್ರಕೃತಿ ಪ್ರತ್ಯಯಾರ್ಥಯೋಃ ಪ್ರತ್ಯಯಾರ್ಥಸ್ಯೈವ ಪ್ರಾಧಾನ್ಯಂ ಇತಿ. ತಥಾಪಿ ಭಾವಪ್ರಧಾನಮಾಖ್ಯಾತಂ ಸತ್ವಪ್ರಧಾನಾನಿ ನಾಮಾನಿ ಇತಿ ನಿರುಕ್ತಾತ್. ನಿರುಕ್ತೇ ಯಾಸ್ಕ ಮಹರ್ಷೇಃ ವಚನಂ ಭಾವಪ್ರಧಾನಮಾಖ್ಯಾತಂ. ತತ್ರಾಖ್ಯಾತ ಶಬ್ದೇನ ಧಾತುಃ ಗೃಹ್ಯತೆ. ಧಾತೋಃ ಭಾವಃ ಅಥವಾ ಕ್ರಿಯಾ ಪ್ರಾಧಾನ್ಯಮಾವಹತಿ. ನಾಮಾನಿ ಪ್ರಾತಿಪದಿಕೇಷು ತು ಸತ್ವಪ್ರಧಾನಾನಿ ಸತ್ವಸ್ಯ ದ್ರವ್ಯಸ್ಯ ಪ್ರಾಧಾನ್ಯಂ ಇತಿ ಯಾಸ್ಕ ಮಹರ್ಷೇಃ ವಚನ ಪ್ರಾಮಾಣ್ಯಾತ್ ಭೂವಾದಿ ಸೂತ್ರಸ್ಥ ಕ್ರಿಯಾ ಪ್ರಾಧಾನ್ಯ ಬೋಧಕ ಭಾಷ್ಯಾತ್. ಭಾಷ್ಯವಚನಮಪ್ಯಸ್ತಿ ಭೂವಾದಯೋ ಧಾತವಃ ಇತ್ಯತ್ರ ಭಾಷ್ಯಕಾರೋಪಿ ಕಥಯತಿ ಕ್ರಿಯಾಯಾಃ ಪ್ರಾಧಾನ್ಯಮಿತಿ. ಅತಃ ಧಾತ್ವರ್ಥ ಭಾವನಾ ಪ್ರಾಧಾನ್ಯಂ ಅಧ್ಯವಸೀಯತೆ. ಧಾತ್ವರ್ಥಸ್ಯ ಭಾವನಾಯಾಃ ಏವ ಪ್ರಾಧಾನ್ಯಂ ಅಂಗೀಕರ್ತವ್ಯಂ ನತು ಪ್ರತ್ಯಯಾರ್ಥಸ್ಯ. ತತ್ರೈವ ಅನುವರ್ತತೆ ವಾದಃ. ಅಪಿ ಚ ಆಖ್ಯಾತಾರ್ಥ ಪ್ರಾಧಾನ್ಯೇ ತಸ್ಯ ದೇವದತ್ತಾದಿಭಿಃ ಸಮಂ ಅಭೇದಾನ್ವಯಾತ್ ಪ್ರಥಮಾಂತಸ್ಯ ಪ್ರಾಧಾನ್ಯಾಪತ್ತಿಃ. ಆಖ್ಯಾತಾರ್ಥ ಪ್ರಾಧಾನ್ಯೇ ಯದಿ ಆಖ್ಯಾತಾರ್ಥಃ ನಾಮ ತಿಂಗರ್ಥಃ ಯದಿ ಪ್ರಕೃತಿ ಪ್ರತ್ಯಯೋಃ ಪ್ರತ್ಯಯೋಃ ಪ್ರತ್ಯಯಾರ್ಥಸ್ಯ ಪ್ರಾಧಾನ್ಯಂ ಇತಿ ಯದಿ ಅಂಗೀಕ್ರಿಯತೆ ತರ್ಹಿ ಕಿಂ ಭವತಿ ದೇವದತ್ತಾದಿಭಿಃ ಸಮಂ ಅಭೇದಾನ್ವಯಾತ್. ತಿಂಗರ್ಥ ಕರ್ತುಃ ತಿಂಗರ್ಥೇನ ಕರ್ತಾ ಉಪಸ್ಥಾಪ್ಯತೆ ಪ್ರಥಮಾಂತ ಪದೇನಾಪಿ ಕರ್ತಾ ಉಪಸ್ಥಾಪ್ಯತೆ ತತ್ರ ಅಭೇದಾನ್ವಯಃ ಇತಿ ದೃಷ್ಟಂ. ದೇವದತ್ತಃ ಪಚ್ಯತಿ ಇತ್ಯುಕ್ತೆ ದೇವದತ್ತಾಭಿನ್ನಃ ಯಃ ಕರ್ತಾ ತದಾಶ್ರಯಃ ವ್ಯಾಪಾರಃ. ದೇವದತ್ತಸ್ಯ ಪ್ರಥಮಾಂತ ಪದಾರ್ಥಸ್ಯ ತಿಂಗರ್ಥ ಕರ್ತುಶ್ಚ ಅಭೇದಾನ್ವಯಃ ದೃಶ್ಯತೆ. ದೇವದತ್ತಾದಿಭಿಃ ಸಮಂ ಅಭೇದಾನ್ವಯಾತ್ ತದಾ ಕಿಂ ಭವತಿ ದೇವದತ್ತಃ ಪಚತಿ ಇತ್ಯುಕ್ತೆ ದೇವದತ್ತಾಭಿನ್ನಃ ಕರ್ತಾ ಇತಿ ತಿಂಗ್ ಪ್ರತ್ಯಯೇನ ಯಃ ಕರ್ತಾ ಉಚ್ಯತೆ ದೇವದತ್ತ ಶಬ್ದೇನ ಯಃ ಕರ್ತಾ ಉಚ್ಯತೆ ಉಭಯೋಃ ಅಭೇದಾನ್ವಯಃ ದೃಶ್ಯತೆ. ಯದಿ ಧಾತ್ವರ್ಥ ಭಾವನಾಯಾಃ ಪ್ರಾಧಾನ್ಯಂ ಅಂಗೀಕ್ರಿಯತೆ ತದಾ ಕಿಂ ಭವತಿ ಅಯಂ ಕರ್ತಾ ದೇವದತ್ತಾಭಿನ್ನಃ ಯಃ ಕರ್ತಾ ಸಹ ವ್ಯಾಪಾರೇ ವಿಶೇಷಣತ್ವೇನ ಅನ್ವೇತಿ. ದೇವದತ್ತಾಭಿನ್ನ ಕರ್ತ್ರಾಶ್ರಯಃ ವ್ಯಾಪಾರಃ ಇತಿ ಭಾವನಾ ವಿಶೇಷ್ಯಕಃ ಶಾಬ್ದಬೋಧಃ ಸಿದ್ಧ್ಯತಿ. ಸಏವ ವೈಯಾಕರಣಾನಾಂ ಮೀಮಾಂಸಕಾನಾಂ ಚ ಅಭಿಮತಂ ಭಾವಪ್ರಧಾನಮಾಖ್ಯಾತಂ ಇತಿ ನಿರುಕ್ತವಚನಾತ್. ಯದಿ ತು ತಿಂಗರ್ಥಸ್ಯ ಪ್ರಾಧಾನ್ಯಂ ಸ್ವೀಕ್ರಿಯತೆ ತದಾ ಕಿಂ ಭವತಿ ವ್ಯಾಪಾರವಾನ್ ಕರ್ತಾ ಇತ್ಯಸ್ತಿ ವ್ಯಾಪಾರವತ್ ಕರ್ತೃಭಿನ್ನಃ ದೇವದತ್ತಃ ಕರ್ತುಃ ದೇವದತ್ತಸ್ಯ ಚ ಅಭೇದಾನ್ವಯಃ ಸಿದ್ಧಃ. ಯದಿ ವ್ಯಾಪಾರಃ ಕರ್ತರಿ ವಿಶೇಷಣತ್ವೇನ ಅನ್ವೇತಿ ಅರ್ಥಾತ್ ಕರ್ತಾ ಪ್ರಧಾನ ಆಖ್ಯಾತಾರ್ಥ ನಾಮ ಪ್ರತ್ಯಯಾರ್ಥಸ್ಯ ಪ್ರಾಧಾನ್ಯಂ ಇತ್ಯುಕ್ತೆ ಕರ್ತು ಪ್ರಾಧಾನ್ಯಂ ತಸ್ಯ ದೇವದತ್ತೇನ ಅನ್ವಯೇ ವ್ಯಾಪಾರವತ್ ವಿಕ್ಲಿತ್ಯನುಕೂಲ ವ್ಯಾಪಾರವತ್ ಕರ್ತೃಭಿನ್ನ ದೇವದತ್ತಃ ಇತಿ ಪ್ರಥಮಾನಂತಾರ್ಥ ಮುಖ್ಯ ವಿಶೇಷಕಃ ಶಾಬ್ದಬೋಧಃ ಸಿದ್ಧ್ಯತಿ. ಯದಿ ಧಾತ್ವರ್ಥ ಪ್ರಾಧಾನ್ಯಂ ಅಂಗೀಕ್ರಿಯತೆ ತರ್ಹಿ ವ್ಯಾಪಾರ ಪ್ರಧಾನ ಶಾಬ್ದಬೋಧಃ, ಯದಿ ತು ಪ್ರತ್ಯಯಾರ್ಥಸ್ಯ ಪ್ರಾಧಾನ್ಯಂ ತರ್ಹಿ ಪ್ರಥಮಾಂತಾರ್ಥ ಮುಖ್ಯ ವಿಶೇಷಕಃ ಶಾಬ್ದಬೋಧಃ ಅಂಗೀಕರ್ತವ್ಯಃ. ತತ್ರ ಕಃ ಕ್ಲೇಶಃ ತಥಾಚ ಪಶ್ಯ ಮೃಗೋಧಾವತಿ ಇತ್ಯತ್ರ ಭಾಷ್ಯಸಿದ್ಧೈಕವಾಕ್ಯತಾ ನ ಸ್ಯಾತ್. ಪಶ್ಯ ಮೃಗೋಧಾವತಿ ಇತಿ ವಾಕ್ಯಂ. ಓಕೆ, ಸೊ ವಾಟ್ ಡು ಯು ಅಂಡರ್ಸ್ಟ್ಯಾಂಡ್ ಬೈ ದ ಸೆಂಟೆನ್ಸ್ ಪಶ್ಯ ಮೃಗೋಧಾವತಿ? ಇಟ್ಸ್ ಫೇರ್ಲಿ ಸಿಂಪಲ್ ಸೆಂಟೆನ್ಸ್. ಕಿಮುಚ್ಯತೆ ತೇನ? ಕಿಂ ದ್ರಷ್ಟವ್ಯಂ ತತ್ರ ಇತ್ಯುಕ್ತೆ, ಸಂಬಡಿ ಇಸ್ ಶೋಯಿಂಗ್ ಪಶ್ಯ ಮೃಗೋಧಾವತಿ ಇತಿ ಉಕ್ತೆ ಕಿಂ ದರ್ಶಯತಿ, ವಾಟ್ ಇಸ್ ದ ವಿವಕ್ಷಾ ಆಫ್ ದ ಸ್ಪೀಕ್. ಸಾರಿ, ತತ್ರ ಕಿಂ ದರ್ಶಯಿತುಂ ಇಚ್ಛತಿ, ದರ್ಶನಸ್ಯ ಕರ್ಮ ಕಿಂ, ವಾಟ್ ಇಸ್ ದ ಆಬ್ಜೆಕ್ಟ್? ಕರ್ತುಃ, ಆಲ್ವೇಸ್ ರಿಮೆಂಬರ್, ಕರ್ತುಃ ಇಪ್ಸಿತತಮಂ ಕರ್ಮ ಮೃಗಃ. ಓಕೆ, ಯಾ, ಎನಿ ಅದರ್ ಆನ್ಸರ್ಸ್?
ಯದಿ ಮೃಗ ಕರ್ಮ ತದಾ ದ್ವಿತೀಯ ವಿಭಕ್ತ್ಯಾಂ ಭವಿತವ್ಯಂ ಖಲು?
ದಟ್ ಇಸ್ ಎ ಡಿಫರೆಂಟ್ ಡಿಸ್ಕಷನ್. ಯೆಸ್, ಐ ಮೀನ್ ವಿ ವಿಲ್ ಟಾಕ್ ಅಬೌಟ್ ದ ವಿಭಕ್ತಿ ಲೇಟರ್. ವಾಟ್ ಇಸ್ ದ ವಿವಕ್ಷಾ ವೆನ್ ಸಂಬಡಿ ಸೇಸ್ ಸಿ ಹೌ ದ ಡೀರ್ ಇಸ್ ರನ್ನಿಂಗ್, ಆರ್ ಸಿ, ಐ ಮೀನ್ ದ ಟ್ರಾನ್ಸ್ಲೇಷನ್ ಮೇಕ್ಸ್ ಇಟ್ ವೆರಿ ಆಬ್ವಿಯಸ್, ಬಟ್ the vivaksha when somebody says, okay, to see a deer it is easy, the same mrugam pashya, see the deer, when somebody says see how the deer is running, pashya mrugo dhavati, that is what it means. It means the vivaksha is with the running, to see the running of the deer and not the deer itself. It is not mruga is not vivakshita as the object, it is the mruga kartrakam dhavanam pashya. Okay, that is the intent of this sentence. Just to see the deer, whether if the running part is not intended, then you can say mrugam pashya, simple, see the deer. If deer is the vivaksha, I mean, it could be for a child, say for my child who has never seen a deer, I could be showing the deer. But when somebody says pashya mrugo dhavati, the vivaksha there is to see the characteristic running of the deer, which is very special. It is not like how say a man would run. ಸೊ ವಿಶಿಷ್ಟಸ್ಯ ಧಾವನಸ್ಯೈವ ಕರ್ಮತ್ವಂ ವಿವಕ್ಷ್ಯತೆ ಅತ್ರ. ಓಕೆ, ಸೊ ದಟ್ ಇಸ್ ದ ಆಕ್ಚುಯಲ್ ವಿವಕ್ಷ. ನಾವು ಹೌ ಡು ವಿ ಅನಲೈಸ್ ದಿಸ್ ಸೆಂಟೆನ್ಸ್, ಪಶ್ಯ ಮೃಗೋ ಧಾವತಿ, ಇಸ್ ಇಟ್ ಒನ್ ಸೆಂಟೆನ್ಸ್ ಆರ್ ಟೂ ಸೆಂಟೆನ್ಸಸ್, ಏಕಂ ವಾಕ್ಯಂ ಉತ ವಾಕ್ಯದ್ವಯಂ ಇತಿ ಪ್ರಶ್ನ. ಬಿಕಾಸ್ ವೈ ದ ಕ್ವೆಶ್ಚನ್? ದ ಭಾಷ್ಯ ಸಿದ್ಧ ಏಕವಾಕ್ಯತ ಭಾಷ್ಯೇತೆ ಇದಂ ಏಕಂ ವಾಕ್ಯಂ ಇತಿ ಸ್ವೀಕ್ರಿಯತೆ. ಕಿಮರ್ಥಂ ಕ್ಲೇಶಃ? ವಾಕ್ಯಂ ನಾಮ ಕಿಂ? ಏಕ ತಿಂಗ್ ವಾಕ್ಯಂ ಇತಿ ವಾರ್ತಿಕಕಾರಃ, ಯಸ್ಮಿನ್ ಏಕಂ ತಿಂಗಂತಂ ಭವತಿ ತದ್ವಾಕ್ಯಂ ಇತಿ ವಾರ್ತಿಕಕಾರಃ ವದತಿ. ಏಕ ತಿಂಗ್ ವಾಕ್ಯಂ, ಸೊ ವೈಯಾಕರಣ ಮತೆ ಏಕ ತಿಂಗ್ ವಾಕ್ಯಂ ಇತ್ಯೇವ ಸಿದ್ಧಾಂತಃ, ದಟ್ ಇನ್ ವಿಚ್ ದೇರ್ ಇಸ್ ಅ ಸಿಂಗಲ್ ತಿಂಗಂತ. ಸೊ ಎನಿವೇರ್ ಯು ಸೇ, ಇಫ್ ಯು ಜಸ್ಟ್ ಸೇ ವೃಕ್ಷಃ, ವಿ ಸೇ ವೃಕ್ಷಃ ಅಸ್ತಿ ಇತಿ ಅಸ್ತಿಕ್ರಿಯಾಯಾಃ ಅಧ್ಯಾಹಾರೇಣ ವಾಕ್ಯತ್ವಂ ಆಪದ್ಯತೆ. ಸರ್ವತ್ರ ವಾಕ್ಯೆ ತಿಂಗಂತಂ ವಿನಾ ವಾಕ್ಯಂ ನ ಭವತಿ, ಏಕೇನ ತಿಂಗಂತೇನ ವಾಕ್ಯಂ ಪೂರ್ಣಂ ಭವತಿ, ಕಾರಕಾನ್ವಿತ ಕ್ರಿಯಾ ವಾಕ್ಯಂ ಇತಿ ವೈಯಾಕರಣ ಸಮ್ಮತಃ ಸಮ್ಮತಂ ವಾಕ್ಯಲಕ್ಷಣಂ. तर्हि वाक्ये एकं तिङन्तं भवेत्। अत्र तु किमस्ति, पश्य इति एकं तिङन्तम् अस्ति, धावति इति एकं तिङन्तम् अस्ति, कथमस्य एकवाक्यत्वम्? एतद् वाक्यम् एकं वाक्यं वा वाक्यद्वयं वा इति प्रश्नः। तत्र उच्यते एकतिङ्वाक्यम् इत्यस्य वाक्ये एकमेव तिङन्तं भवेत् इत्यर्थः न, एकतिङन्तप्रधानं वाक्यं, वाक्ये एकस्यैव तिङन्तस्य अर्थात् एकस्याः एव क्रियायाः प्राधान्यं भवेत् इत्यर्थः स्वीक्रियते। एकतिङ्वाक्यम् एकतिङन्तप्रधानम् अथवा एकक्रियाप्रधानं वाक्यम्। तथा च अत्र किमस्ति, दर्शनक्रिया एका, धावनक्रिया एका इति क्रियाद्वयमस्ति। तत्र दर्शनक्रिया प्रधाना, धावनक्रिया दर्शने विशेषणम्। सो धावति इज एक्चुअली अ विशेषण टु दर्शन, दट इज वट रन्निंग इज द इंटेंडेड कर्म फॉर दर्शन। ओके, अतः मृगकर्तृकम् धावनम्, मृग धावति इत्यत्र कर्ता, अतः मृगकर्तृकम् धावनम्। मृगो धावति इत्यस्य कः अर्थः? मृगकर्तृकम् धावनम् नाम धावनरूपः व्यापारः। तद्धावनरूपव्यापारः दर्शनक्रियायां विशेषणम्। अतः मृगकर्तृकधावनकर्मकं दर्शनम्। तत्र पश्य इत्यत्र मध्यमपुरुषात् त्वत्कर्तृकं दर्शनम्, तच्च लोट्लकारे अस्ति अतः प्रेरणाविषयीभूतं, दर्शनस्य प्रेरणा क्रियते। अतः मृगकर्तृकधावनकर्मकं प्रेरणाविषयीभूतं त्वत्कर्तृकं दर्शनम् इति एकक्रियाविशेषकः शाब्दबोधः अत्र अस्ति। सो ईवन् दो वि हियर् टु तिङन्तस्, द टु तिङन्तस् आर् द टु एक्शन्स् आर् नाट् इण्डिपेण्डेण्ट् आफ् ईच् अदर्। द मेन् क्रिया इस् दर्शन टु सी, एण्ड् वाट् इस् द आब्जेक्ट् आफ् दर्शन इस् अनदर् क्रिया विच् इस् द धावनक्रिया। एवं धावनक्रिया दर्शनक्रियायां विशेषणत्वेन अन्वेति, इत्थञ्च मृगकर्तृकधावनकर्मकं प्रेरणाविषयीभूतं त्वत्कर्तृकं दर्शनम् इति एकक्रियाविशेषकः शाब्दबोधः। अत एव भाष्ये अस्य एकवाक्यता अङ्गीक्रियता, इदमेकमेव वाक्यं, देर् इस् ओन्ली अ सिङ्गल् सेण्टेन्स्, देर् आर् नो टु सेपरेट् सेण्टेन्सस्। टु सेपरेट् सेण्टेन्सस् मीन् देर् आर् टु सेपरेट् शाब्दबोधस्, दट् इस् यू हेव् टु अण्डर्स्टाण्ड् इट् विथौट् रिलेशन् टु ईच् अदर्, दट् इस् नाट् हेपनिङ्ग् हियर्। Okay, so all three words are related to each other. Tatra mrigakartrikam dhavana karmakam darshanam iti anvayaha bhavati. Ittancha ekavakyata atra bhashyena mahabhashyena angikrita mahabhashyakarena angikrita ataha ekavakyatvam. Yadi prathamantartha mukhya visheshakah shabdabodhah svikriyate purvoktaritya, yadi akhyatarthasya prakritiprathyayayoho प्रत्ययार्थस्य प्राधान्यं तथा च आख्यातार्थस्य कर्तुः प्राधान्यं प्रथमान्तार्थमुख्यविशेषकः शाब्दबोधः, तर्हि अत्र एकवाक्यता न भवति। कुतो न भवति? प्रथमान्तमृगस्य धावनक्रियाविशेष्यस्य दृशिक्रियायां कर्मत्वापत्तौ द्वितीयापत्तेः। इफ् यु आर् सेयिङ्ग् प्रथमान्तमृग, यदि प्रथमान्तार्थप्राधान्यं स्वीक्रियते तर्हि धावनक्रिया धावनरूपः व्यापारः मृगे विशेषणम्, रैट्? जस्ट् लैक् पाक पाकवत् व्यापारवत् कर्तृकः व्यापारवत् कर्तृभिन्नः देवदत्तः इति यथा स्वीक्रियते, तथा अत्रापि धावनं धावनव्यापारः प्रथमान्तार्थे मृगे विशेषणं भवति। धावनक्रियावान् मृगः अथवा धावनरूपव्यापारविशिष्टः मृगः इति मृगो धावति इत्यस्य शाब्दबोधः। सो द पार्ट् मृगो धावति विल् बी इण्टर्प्रेटेड् एस् धावनक्रियावान् मृगः अथवा धावनविशिष्टः मृगः। नौ इफ् दिस् मृग इस् नौ रिलेटेड् टु दर्शन, अस्य मृगस्य पुनः दर्शनक्रियायाम् अन्वये किं भवति? धावनविशिष्टमृग कर्मकं दर्शनम्। So then, mruga becomes the karma to darshana, right? So if, yadi mrugaha darshana kriyayam karma, tada dvitiya vibhakti hi syat. You will not have a sentence at all. Pashya mrugo dhavati iti vakyam eva na syat. Prayoge tu drishyate. Prayoge asti iti karane naiva vishleshanam kriyate. यदि प्रथमान्तार्थ मुख्य विशेषकः शब्दबोधः स्वीक्रियते तर्हि धावनक्रिया मृगे विशेषणम् सच मृगः दर्शने विशेषणम् धावनक्रिया विशिष्ट मृगकर्मकम् दर्शनम् इति शब्दबोधः अयम् शब्दबोधः नेष्यते यतोहि मृगस्य कर्मत्वम् न किञ्च तथा सति पश्य मृगो धावति इति वाक्यमेव न स्यात् द्वितीया विभक्तिः स्यात् इति आपत्तिः न च एवम् अप्रथमा सामानाधिकरण्यात् शत्रुप्रसङ्गः एवमपि द्वितीयायाः दुर्वारत्वेन पश्य मृगो धावति इति वाक्यस्यैव असम्भवा पत्तेः अत्र मध्ये अन्यः एकः वादः लटशत्रुशान च वप्रथमा समानाधिकरणे इति सूत्रम् इदं सूत्रं शत्रुशानच् प्रत्ययविधायकम् पठन् लभमानः इति पठन् इति परस्मैपदानां शत्रुप्रत्ययः परस्मैपदीनां धातूनाम् आत्मनेपदीनां शानच् प्रत्ययः क्रियते तत्र शत्रुशानच् इत्येतौ प्रत्ययौ लट् लकारस्य स्थाने भवतः अत एव तेषां वर्तमानार्थकत्वं वर्तमानकृदन्तौ इत्युच्यते पठन् लभमानः इति वर्तमानकृदन्तौ तत्र शत्रुप्रत्ययः शानच् प्रत्ययः च लट् लकारस्य स्थाने आदेशत्वेन क्रियते अत एव वर्तमानार्थत्वम् तस्मिन् सूत्रे अप्रथमा समानाधिकरणे इति पदमस्ति विच् मीन्स् एक्चुअलि वेरि टेक्निकली अकार्डिङ्ग् टु पाणिनि द शत्र अण्ड् शानच् आर् यूस्ड् वेन् देर् इस् समानाधिकरण्य वित् अ वर्ड् विच् इस् नाट् इन् प्रथमा विभक्ति ओके सो तस्य there are several that is why they say pathan asti is not pathantam balakam pashya pathata balakena kratam pathate balakaya dehi so there is samanadhikaranya in other vibhaktis is seen kintu balakaha pathan asti iti prathama samanadhikaranye prayogaha anena sadhayitum dushyakaha okay. so it is actually difficult according to you know panini and rules to support defend prayogas like balakah pathan asti athava aham likhan asmi whatever so there are several ways in which they try which is not relevant right now but the sutra says aprathama samanadhikarane idanim kim jatam tatra dhavati ityasti dhavanakartrukah mrugah iti tatra अप्रथमा सामानाधिकरण्यम् यदि द्वितीया विभक्तिः भवति यदि मृगपदा द्वितीया विभक्तिः भवति तेन धावति इत्यत्र तिङ्प्रत्ययोपात्तस्य कर्तुः सामानाधिकरण्यम् तिङ्प्रत्ययेन कर्ता उच्यते मृगशब्देनापि कर्ता उच्यते यदि मृगपदा द्वितीया विभक्तिः अङ्गीक्रियते तर्हि तेन सामानाधिकरण्यम् अप्रथमा सामानाधिकरण्यम् अस्ति तथा च लटशत्रुशानचौ इत्यनेन शत्रुप्रत्ययः स्यात् इति मध्ये वदति शत्रुप्रत्ययः नास्ति अतः अत्र द्वितीया विभक्तिः न भवति इति केनचित् उच्यते अतः द्वितीया न भवति यदि द्वितीया विभक्तिः स्यात् तर्हि अप्रथमा सामानाधिकरण्यात् शत्रुप्रत्ययः स्यात् शत्रुप्रत्ययः नास्ति अतः द्वितीया न भवति इति चेत् न च एवम् अप्रथमा सामानाधिकरण्यात् शत्रुप्रसङ्गः एवमपि द्वितीयायाः दुर्वारत्वेन शत्रुप्रत्ययः भवेत् इति कारणेन द्वितीया विभक्तिः न भवति इति वक्तुं न शक्यते शत्रुप्रत्ययः द्वितीया विभक्तेः प्रतिबन्धकः न यथा पठन्तं बालकं पश्य इति भवति तथा शत्रन्तादेव द्वितीया विभक्तिः भवति धावन्तं मृगं पश्य इति वाक्यं भवति यदि मृगपदस्य धावनकर्तुः च अप्रथमा सामानाधिकरण्यम् इष्यते तर्हि शत्रुप्रत्ययः अपि भवति शत्रुप्रत्ययान्तात् द्वितीया भवति एवञ्च धावन्तं मृगं पश्य इति वाक्यमेव साधु इति भवति पश्य मृगो धावति इति वाक्यस्यैव साधुत्वं न स्यात् एवमपि द्वितीयायाः दुर्वारत्वेन पश्य मृगो धावति इति वाक्यस्यैव असम्भवापत्तेः So, if we accept prathamantartha mukhya visheshaka shabda bodha, pashyamrugo dhavati iti vakyameva na bhavati, tasya ekavakyatava bhinna vakyatava iti vicharastu dure. एवञ्च भाष्ये प्रतिपादिता एकवाक्यता न सिद्ध्यति प्रथमान्तार्थ मुख्य विशेषक शब्दबोधे। अन्यदेकं समाधानमुच्यते अत्र, न च पश्य इत्यत्र तम् इति कर्म अध्याहार्यम्। अस्तु, पश्य मृगोधावति इत्यस्ति, मृगोधावति, तम् पश्य इति तच्छब्दस्य अध्याहारं कुर्मः इति एकं समाधानम्। न च पश्य इत्यत्र तम् इति कर्म अध्याहार्यम्, कर्मित् कर्म न अध्याहार्यम् इत्यन्वयः। किमर्थम्? वाक्यभेदप्रसङ्गात्। एवं सति द्वौ वाक्यौ, मृगः धावति इति एकं वाक्यं, तं पश्य इति द्वितीयं वाक्यं, वाक्यद्वयं भवति, एकवाक्यता तु न सिद्ध्यति। उत्कटधावनक्रियाविशेषस्यैव दर्शनकर्मतया अन्वयस्य प्रतिपादयिषितत्वात्। प्रतिपादयितुम् इच्छा, प्रतिपिपादयिषा, तदस्ति इति भूतकाले प्रतिपिपादयिषितम्, तत्वात् अध्याहारे अनन्वयापत्तिः। सो दिस् इस् द की पॉइंट्, वाट् इस् द विवक्षा? विवक्षा किम्? उत्कट धावनक्रिया विशेषस्य दर्शनकर्मतया अन्वयः, दट् इस् वाट् इस् इण्टेण्डेड् बै द सेण्टेन्स्। द क्रिया विशेष, द स्पेशल् एक्ट् आफ् रन्निङ्ग् इस् इण्टेण्डेड् एस् द आब्जेक्ट् आफ् सीयिङ्ग्, नाट् द मृग। मृगकर्तृकस्य धावनस्यैव कर्मत्वम् इष्यते, न तु केवलस्य मृगस्य। अतः पश्य मृगो धावति इत्यत्र का विवक्षा? मृगं पश्य इत्यत्र या विवक्षा, सा न। मृगं पश्य इति वाक्यं भवितुमर्हति, तत्र विवक्षा भिन्ना। मृगस्य विलक्षणं यत् उत्कटधावनं, तदेव कर्मत्वेन विवक्षितम्। अतः तम् इति अध्याहारे तच्छब्देन किं बोध्यते? मृगः एव बोध्यते। अतः तत्पदबोधस्य मृगस्यैव दर्शनक्रियायाम् अन्वयः भवति, मृगकर्मकं दर्शनम् इत्येव बोधः स्यात्, न तु धावनकर्मकं दर्शनम् इति। अतः पश्य मृगो धावति इत्यत्र भाष्येण एकवाक्यता प्रतिपादिता, तेन किं ज्ञायते? तत्र धात्वर्थ मुख्यविशेषकः शाब्दबोधः। मृगः पश्य धावति इत्यत्र कः बोधः? मृगकर्तृकं धावनम्। तस्य इदानीं दर्शनक्रियायां कर्मत्वेन अन्वये मृगकर्तृक धावनकर्मकं दर्शनम् इति एकवाक्यता सिद्ध्यति। कदा सिद्ध्यति? धात्वर्थभावनायाः प्राधान्ये अङ्गीकृते एव सिद्ध्यति, न तु प्रथमान्तार्थस्य प्राधान्ये अङ्गीकृते। अतः धात्वर्थभावनायाः एव प्राधान्यम् अङ्गीकर्तव्यम्। एवञ्च भावनाप्रकारकबोधे प्रथमान्त, अत्र टङ्कणदोषः अस्ति, प्रथमान्तपदजन्योपस्थितिः कारणम् इति नैयायिकोक्तं नादरणीयम्। दिस् इस् वाट् द नैयायिका सेड्। नैयायिका सिद्धान्त इस् भावनाप्रकारकबोधे, प्रकारः नाम अप्रधानः अथवा विशेषणीभूतः। आल् दीस् वर्ड्स् आर् सिनोनिमस्लि यूस्ड्। प्रकार, प्रकारभूत, गुणभूत, विशेषणीभूत, अप्रधान, all these are synonyms. They all mean that it is subsidiary or secondary. Okay? Bhavana prakaraka bodhe, yatra bhavana visheshanatvena anveti, tadrisha bodhe prathamanta padajanyopasthitihi karanam. Arthat prathamanta arthe kartari bhavana visheshanatvena anveti iti nayayikoktam nadaraniyam. Kintu tarhi kim vaktavyam? आख्यातार्थ कर्तृप्रकारकबोधे, आख्यातार्थः नाम तिङर्थः कर्ता, विशेषणी भवति। कुत्र? धातुजन्योपस्थितिः भावनात्वावच्छिन्नविषयतया हेतुः। सो तिङर्थकर्ता प्रकारः, कुत्र प्रकारः? धात्वर्थे, धातुजन्योपस्थितिः। तत्रापि धात्वर्थे कुत्र? फले अथवा व्यापारे इति चेत् भावनात्वावच्छिन्नविषयतया हेतुः। आख्यातार्थ कर्तृप्रकारकबोधे कर्ता भावनायां विशेषणम् इत्यर्थः। आख्यातार्थ कर्तृप्रकारकबोधे धातुजन्योपस्थितिः भावनात्वावच्छिन्नविषयतया हेतुः इति कार्यकारणभावो द्रष्टव्यः। So in case of vayakarana, the karyakarana is reverse. So the nanyayika se bhavana prakaraka bodhe, bhavana visheshanatvena anveti, prathamanta padadanyopasthitihi hetuhu. Arthat prathamanta padam yatra asti devadattaha iti tasmin bhavana prakaratvena visheshanatvena anveti. Pakanakula vyaparavan devadattaha iti bodhaha. Prathamanta artha mukhya visheshakaha bodhaha. Kintu tat nadriyate. Kuto nadriyate? Pashyamrugo dhavati ityatra vakya bheda prasangat athava vakyasyaiva asadhutva pattehe. Tarhi kim vaktavyam akhyatartha kartra prakaraka bodhe. Akhyatarthaha atingarthaha karta. Sahakarta, visheshanatvena, prakaratvena anveti kutra, dhatujanyopasthiti, dhatvarthe anveti, tatrapi kutra dhatvarthe, bhavanatvavachinna visheyataya, bhavanarupe dhatvarthe, karta visheshanatvena anveti, iti karyakarana bhavo drastavyaha. Bhavana prakaraka bodham pratitu, atratu kim jatam bhavana pradhana. So in this case, if you are accepting this karya karana bhava, tatra bhavanayaha pradhanyam. Samanyataha tingantasthale bhavanayaha pradhanyam. Iti angikritam. Tarhi bhavana prakaraka shabda bodhaha kutra bhavati. Where will bhavana work as a visheshana and not pradhana? Kridjanyopasthitivat. Yatha pachakaha devadattaha ityasthi. Tatra kridantena yatra bhavana upasthapyate. Tatra bhavanayaha pradhanyam nabhavati, gaunatvameva bhavati. Ataha, pakanukula vyaparavan devadattaha iti kridantasthale. Pachakaha devadattaha ityatra, pakanukula vyaparashraya kartrabhinnaha devadattaha. Vyaparashrayaha karta ityatra, bhavana prakaribhuta karta pradhanaha. Ataha bhavana prakaraka bodham prati kridjanyopasthitihi hetuhu. Kridantena yatra bhavana upasthapyate tatra tasyaha apradhanyam tadvat. Similarly, dhatvartha bhavana upasthitirapi hetuhu. In such sentences, pashyamrugo dhavati ityatra dhavati iti tingantena ya bhavana upasthapyate sa prakarabhuta. So here the dhavana kriya is not pradhana, it is visheshana. Evanta dhatvartha bhavana upasthitihi api hetuhu ubhayam angikaraniyam. Arthat vyaparasya visheshanatvam kutra bhavati. Tingantasthale, samanyataha tingantasthale vyaparasya visheshyatvam eva. Kintu visheshanatvam kridantasthale kartari visheshanam bhavati. Kadachit, in special instances, not always, anyadhatvartha bhavana upasthiti sthale, where a different kriya is present in the same sentence as given by a dhatu. Anyadhatvartha bhavana upasthiti sthale bhavanayaha visheshanam yatha pashyamrugo dhavati. So in the same sentence, if there are two tingantas, the bhavana of one will be prakara to the bhavana of the other. Tatrapi bhavana mukhya visheshakaha shabda bodhaha, bhavana prakarakopi shabda bodhaha. There the bhavana of one of them is pradhana and the other is gauna. Yatha pashyamrugo dhavati, pachati bhavati iti prayogaha. This also we saw. Pachati bhavati, paka kriya bhavati, atava paka vyaparasya satta eva bodhyate. Tatra pachati kriya, bhavati kriyayam visheshanam. Okay, so the bhavana pakanukulaha vyaparaha iti pachati ityasya pakanukulaha vyaparaha tatsya sattayam bhavati iti satta kriyayam kartrutvena anvayaha. Ataha pakanukula vyapara kartrika satta iti bhavanayaha anyasyam bhavanayam prakaratvena anvayaha api sambhavati. Bhavana prakaraka bodham pratitu kridjanyopasthitivat dhatvartha bhavana upasthiti rapi hetuhu pashyamrugo dhavati pachati bhavati ityadyanurodhat iti dik. Okay, so this iti dik, this phrase is again used generally when winding down long arguments in the Shastra. Iti dik, anaya disha, vadaha netavyaha. It does not mean this is the end. It means, okay, I am stopping here. So if there are further arguments, they can be taken in the same direction. Okay. So it usually signals the end of one long drawn argument. In most of the Shastra texts, they use this iti dik. So this is the direction in which it has to be taken. Ityarthaha. Esha dik ityarthaha. But it usually signals the conclusion of a long drawn argument in the Shastra Grantha. Okay. So you will see this in all Bhashya. Most of the texts use this phrase. Okay. Evancha. So this actually, so we are coming to the end of the first Karika. Phalavyapara yordhatuhu ashrayeta tingasmrutaha phale pradhanam vyaparaha tingarthastu visheshanam. So we have examined all parts of the Karika and we have arrived at the final Siddhanta, which is dhatvartha vyapara mukhya visheshakaha shabdabodhaha. So that is the Siddhanta according to Vaiyakaranas. Iranim katham shabdabodhaha iti kanichana udaharanani darshayati. Evancha pachati ityatra ekashrayika pakanukula bhavana iti bodhaha. So it is in short. So if you can use bhavana, so normally Vaiyakaranas use vyapara. Okay, in both of them there is no difference. So ekatva sankhyavachinna kartrashrayaha pakanukulaha pakashabdena atra viklittihi uchyate viklittyanukulaha vyaparaha iti shabdabodhaha pachati iti kartari prayoge. Karta uchyate ting pratyayena. Pachyate ityatra ekatva sankhyavachinna karmashraya ya viklittihi yatra karmani prayogaha tatra sankhya karmani anveti. Tingarthaha karma sankhya karmani anveti karma phale anveti. Ekashrayika ya viklittihi arthati ekatva sankhyavachinna karmashrayika ya viklittihi tadanukulaha vyaparaha athava tadanukula bhavana iti bodhaha. Ataha kartrasthale karmasthale ubhayatrapi vyapara mukhya visheshika shabdabodhaha eva angikriyate. Kartrapratyaya samabhivyahare tatha karmapratyaya samabhivyahare. Devadattadi pada prayoge tu. So kevalam pachati pachyate iti prayoge eva kartuhu karmanaha pratitihi bhavati. Sacha karta vyapare visheshanatvena anveti karma phale visheshanatvena anveti. Kalasyapi bodhaha asti vartamana kalikaha vyaparaha iti atra na pradarshyate. So the one he tells is not the complete shabda bodha, it is an indicative one. So vartamana kalatvam to asti nakenapi vipratipatti hi darshyate. Nobody will debate that portion and that is why he does not specify it. But the complete shabda bodha is what we practiced earlier. Okay, it will include all sankhya, karta, kala, everything. Devadattadi pada prayogetu yatra kartuho karmanahava vishishya nirdeshaha kriyate tatratu akhyatartha kartradibhihi tadarthasya abhedanvayaha. So the karta or karma is already given by the thing pratyaya itself. The specification of the karta or karma is done by the prathamantapada abhedanvayaha. Devadattaha pachati ityukte ekatva sankhyavachinna devadattabhinna kartrashrayaha karta devadattaha kartari abheda sambandhena anveti pakanukulaha vyaparaha. Odanaha pachyate ekatva sankhyavachinna odanabhinna karmashraya atra odanaha karmani abhedena anveti yaviklittihi tadanukulaha vyaparaha iti shabdabodhaha. Devadattadipada prayogetu akhyatartha kartradibhihi tadarthasya abhedanvayaha. Ghato nashyati ityatrapi ghatabhinna ashrayakaha nashanukulaha vyaparaha iti bodhaha. Okay, now he takes, very briefly, he takes some, debatable cases. Okay. he does not go into detail here. The details will come again later. But now, an example like ghataha nashyati ityasti. Tatra vastutaha kechana nayayikaha vadanti tatra kevalam phalam bodhyate nashaha destruction iti phalameva bodhyate tatra vyaparasya bodhaha nasti iti keshanjana nayayikanam matam. Kintu ubhayamapyasti iti pradarshyate ghato nashyati ityatrapi ghatabhinna shrayakaha ghataha kartari abhedenanveti ghatabhinna kartrashrayakaha nashanukulaha vyaparaha tatra nashaha phalam tadanukulaha vyaparaha ityeva bodhaha ekatva sankhyavachinna ghatabhinna kartrashrayakaha nashanukulaha vyaparaha. Kidrishaha vyaparaha, what is the vyapara in nashyati? Ghataha nashyati. Okay, it is difficult to translate this exactly into English. Okay. It is not the pot is destroyed. Okay. So when you are saying the pot is destroyed by something, you are implying that the ghata is the karma. This is not karma. It undergoes destruction it is difficult to translate. So, ghataha nashyati ityasti. Tatra katham ghatasya kartrutvam asti. Nasharupa vyapare kartrutvam asti. Kaha saha vyaparaha? Sacha vyaparaha pratiyogitva vishishta nashasamagri samavadhanam. So, pratiyogi. Pratiyogi is a standard term used in Nyaya Shastra. Yasya abhavaha uchyate saha pratiyogi. So, abhava is absence. Kasya abhavaha? Yatra ghata abhavaha. Ghatasya nashaha ityukte ghata abhavaha. Ghata abhave ghataha pratiyogi. Pata abhave pataha pratiyogi. Pratiyogitva vishishtam. Pratiyogitvam nama ghatatvam. Ghatatva vishishta nasha samagri. So, the nasha samagri associated with ghata. What is it? Ghate danda praharadi rupa. How is the ghata destroyed? By, say somebody hits it with a stick. Now, ghate danda praharadi rupaya nasha samagri tasyaha samavadhanam nama satta athava vidyamanata eva vyaparaha. So, the vyapara here, he says, is having the action of being associated with a nasha samagri specific to the pratiyogi, which is ghata. Ataha ghatatva vishishta nasha samagri samavadhanam eva tatra vyaparaha. Atayeva, that is why tasyam satyam, arthat samagriyam satyam, when that particular association with something like danda prahara is present, tasyam satyam, tasyaha vartamanatve nashyati iti prayogaha. Tadatyaye, when that association is completed, when the vyapara or action is completed, ghato nashtaha iti bhutakalika prayogaha, tad bhavitve. So when we assume or we are indicating a future presence of or future association with such samagri, nankshyati iti prayogaha. Ateva nashyati nashtaha nankshyati iti kalatraye prayogaha. Kalasya vyapare visheshanam. Arthat vyaparaha yatra asti tatraiva kalasya bhanam bhavati. Yadi vyaparaha nasti, if according to Nayayika there is only phala, there is nasha, which is abhava, ghata abhava, you cannot make prayogas like nashyati, nankshyati or anashyati. So, traikalikaha prayogaha na siddhyati. Ataha tatrapi nashaha tadanukula vyaparaha ubhayam vartate. Devadattaha janati ichyati tyadaucha. So these are again problematic kriyas. So janati, it is very difficult to separate what is the phala and what is the vyapara. That is the problem with all these cases, whether you say nashyati or janati ichyati or plain asti bhavati. The problem is that we do not have the distinct separation between phala and vyapara. That is why we usually have pachati as the initial example, because it is one of the few verbs where it is very easy to see distinctly the phala or vikliti the being cooked, and vyapara, the action which facilitates that cooking. Okay. So very distinct phala and vyapara is seen in pachati. That is why all vyakaranas take pachati as the principal example for their this. Okay. That does not mean they do not think about these problematic verbs. So they are thought of, but in the later stages. Devadattaha janati ichyati ityadaucha devadatta bhinnashrayakaha jnanechhadyanukulaha vartamanaha vyaparaha iti bodhaha. Ekatta sankhyavachinna devadatta bhinnakartrashrayaha jnananukulaha vyaparaha. A vyapara which facilitates jnana, knowledge. What is the vyapara? How do you see? Do you see any action in saying, okay, Devadatta knows this? You can see the phala, which is the jnana. Kaha vyaparaha tatra? Sacha antataha ashrayata eva iti rītya uhyam. So the vyapara is actually avasthana. It is just being the holding that knowledge. Okay. So ashrayata, jnanasya, ashrayata sambandhena vyaparaha. Atmamana sanyogaha ityeva angikriyate. So if you go further into commentaries or into other texts, they say jnanam, iccha, ityadishu, kaha vyaparaha, what is the vyapara? Atmamana sanyogaha. Atmanaha manasa sanyogaha eva vyaparaha. Sacha indriya pratyakshaha na. So you cannot see that vyapara through our senses, but it is still there. Because tadrina jnanasyava icchayahava sambhavaha nasti ityataha atmamana sanyoga rupaha vyaparaha sarvatra bodhyate ataha tatrapi phalasya vyaparasya ubhayoho darshanam asti iti ritya uhyam. So other cases have to be guessed similarly. Iti asyaha karikayaha vyakhyanam bhushanasare samapyate. So next karikas he will deal with in the next bhaga of Dhatvartha Prakarana. As we have seen, there are 22 karikas in the Prakarana. You don't have to worry. This is the longest. The first karika is the longest. The other karikas are not so long drawn. But some of them have lots of this. Any questions? Prashna Santiva? Can you suggest any commentary for students to follow? I mentioned in the initial classes, there are several commentaries for Bhushanasara. Okay. Even though it is a relatively later text, hardly 300 years old, there are lots of commentaries for the text because it is one of the few texts which made the Arthika Vicharas accessible to modern Vayakaranas. Okay. But most of the commentaries are fairly complicated, whether you go by the ancient ones or the modern ones. By modern, I mean those composed in the last century, which is the 20th century. So even before that, there were several commentaries. So if I think it was in the first class, we saw there are several commentaries. The most popular commentaries are the ones which are in print. So that is again a issue because there are several, some commentaries are not in print. Okay. I mean, you don't get printed versions of those. So the most popular commentaries are the ones, this Prabha and Darpana. Okay. So Darpana by Harivallabha Shastri and Prabha by Balakrishna Pancholi. These two, there is one very popular edition with these two commentaries. Darpana is a predominantly Tarka or Nayayika styled commentary, which is very difficult to understand unless you have a very good grounding in Tarka Shastra. Prabha is better, but even that in many cases is the main issue with commentaries is they don't, these commentaries don't discuss only the meaning. I mean, they are not like, say, if you take Mallinatha's Vyakhyana to Kalidasa's Kavya, he says, Namulam Likhyate Kinchit Nanapekshita Muchyate. So there are both cases he says, I will not write anything Amula, and also Anapekshitam Nochyate Hiti. But the Shastra commentaries are not like that. I mean, they go in detail onto, I mean, they even try to criticize other commentaries, whether the other commentaries are right or wrong. They go into Vaiyakarana Bhushana and they are actually much, much more detailed than what can be followed by a beginner in the text. I am not saying they are not required, definitely. But for a beginner, they might be difficult to follow. Okay, so that is why, I mean, my gurus used to say, and I also say, when you are reading a text for the first time, a Shastra text for the first time, better not get into the commentaries. Okay? So especially when you have a teacher, how much or what they say is what you can take in at that time. So for the first reading, for any Shastra text, it is very difficult to read and understand a commentary. So despite that, of these commentaries, my personal recommendation would be Tattvadarshini by Peri Suryanarayana Shastri. But it is again out of print and not available. What I have, the notes which I have made are mostly based on Tattvadarshini. For you to follow, the best book actually would be the notes by Rashtriya Samskrita Samsthan. Okay. The Rashtriya Samskrita Samsthan has a Mukta Swadhyaya Peetha. That is their distance education limb. They have published notes for, that is, self-learning or distance learning material for their syllabus. That syllabus also has Bhushanasara. Okay? It is not that of the Vidyapeetha. The RSVP in Tirupati gives only the Moola of the text, which is anyway useless. But the Rashtriya Samskrit Samsthan has notes which are very useful, actually, fairly well written by scholars and fairly good enough for understanding this one. So at this stage, yes, that is the best bet. Okay, they have a set of 5 or 6 books for each one. So for this, actually, the Dhatvartha Prakarana is there in the first volume of the notes of Bhushanasara. That is the best book at this stage, definitely. That is the best because they give very good summary and also the Moola Grantha and required explanations to the correct level. Okay. Okay. So there were some other questions. Could ekavakyata mean anekasya vakyasya ekashabda bodhaha? No. Ekavakyata means it's a single sentence. See, what is ekavakya means all the words within that are related to each other and there is a single visheshya. If you have two vakyas, there will be two visheshyas. If the two visheshyas are independent, that is, one cannot relate it to the other as a visheshana, then they are two separate words, two separate sentences, which means two separate shabda bodha. Ekavakyata means it is a single sentence. Well, finally, all converge with only one thing as pradhana. Okay. Yes, Sudha.
Yeah, this is exactly what I was asking. You answered that.
So, ekavakyata means a single sentence only. Next, how can we find the phala of dhatus, like patadhatu or krudhatu or anything? So, that is again, There is no book which generally gives the phala. So it is contextually they mention sometimes. Say for example, pachati vikriti is mentioned other cases. So there are some dhatus for which we know. I'm actually trying to collect. I was talking to some of my friends. So if I get it, I'll let you know. Otherwise, there is no single source from which you can get, you know, the phala and this separately. There are cases where using the dhatu patha, we can find the phala sometimes. I mean, the artha is generally indicated as the phala. But what they do in many cases is they use a kridanta form of it as the phala. Say, for example, if there is a pachati, they say paka anukulaha vyaparaha, where paka is the phala. Okay, so what is that paka? It doesn't actually specify what it is. Paka anukulaha vyaparaha is good as a shabda bodha. That paka is nothing but viklitti. So like that we can do for all gamananukulaha vyaparaha or karananukulaha. What exactly is that? It is not available in a single source. No. As we keep reading different texts, we can find them out. Any other questions?
ಫಣಿಭಾಷಿತಭಾಷ್ಯಾಬ್ಧೇ ಶಬ್ದಕೌಸ್ತುಭ ಉದ್ಧೃತಃ ತತ್ವನಿರ್ಣೀತ ಏವಾರ್ಥ ಸಂಕ್ಷೇಪೇಣೇಹ ಕಥ್ಯತೆ ಫಲವ್ಯಾಪಾರಯೋರ್ಧಾತುಹೋ ಆಶ್ರಯೇತು ತಿಂಗಸ್ಮೃತಾಃ ಫಲೇ ಪ್ರಧಾನಂ ವ್ಯಾಪಾರಸ್ತಿಂಗರ್ಥಸ್ತು ವಿಶೇಷಣಂ ಫಲವ್ಯಾಪಾರಯೋಸ್ತತ್ರ ಫಲೇ ತಂಗ್ಯಕ್ಷಿಣಾದಯಃ ವ್ಯಾಪಾರೇ ಶಪ್ಷ್ಣಮಾದ್ಯಾಸ್ತು ದ್ಯೋತಯಂತ್ಯಾಶ್ರಯಾನ್ ವಯಂ ಉತ್ಸರ್ಗೋಯಂ ಕರ್ಮಕರ್ತೃ ವಿಷಯಾದೌ ವಿಪರ್ಯಯಾತ್ ತಸ್ಮಾದ್ಯಥೋಚಿತಂ ಜ್ಞೇಯಂ ದ್ಯೋತಕತ್ವಂ ಯಥಾಗಮಂ ವ್ಯಾಪಾರೋ ಭಾವನಾ ಸೈವೋತ್ಪಾದನಾ ಸೈವ ಚ ಕ್ರಿಯಾ ಕೃಣ್ಯೋ ಕರ್ಮಕತಾಪತ್ತೇರ್ ನಹಿ ಯತ್ನೋರ್ಥ ಇಷ್ಯತೆ ಕಿಂತು ಉತ್ಪಾದನಮೇವಾತಃ ಕರ್ಮ ವತ್ಸ್ಯಾದ್ಯಗಾದ್ಯಪಿ ಕರ್ಮಕರ್ತರ್ಯನ್ಯಥಾತೋ ನ ಭವೇತ್ ತದೃಶೇರಿವ ನಿರ್ವರ್ತ್ಯೇ ಚ ವಿಕಾರ್ಯೇ ಚ ಕರ್ಮವದ್ಭಾವ ಇಷ್ಯತೆ ನತು ಪ್ರಾಪ್ಯೇ ಕರ್ಮಣೀತಿ ಸಿದ್ಧಾಂತೋತ್ರ ವ್ಯವಸ್ಥಿತಃ ತಸ್ಮಾತ್ ಕರೋತಿರ್ಧಾತೋ ಸ್ಯಾದ್ ವ್ಯಾಖ್ಯಾನನ್ನತ್ವಸೌತಿಂ ಪಕ್ವವಾನ್ ಕೃತವಾನ್ ಪಾಕಂ ಕಿಂಕೃತಂ ಪಕ್ವಮಿತ್ಯಪಿ ಕಿಂ ಕಾರ್ಯಂ ಪಚನೀಯಂ ಚೇತ್ಯಾದಿ ದೃಷ್ಟಂ ಹಿ ಕೃತ್ಸ್ವಪಿ ಕಿಂಚ ಕ್ರಿಯಾ ವಾಚಕತಾಂ ವಿನಾ ಧಾತುತ್ವಮೇವ ನ ಸರ್ವನಾಮಾವ್ಯಯಾದೀನಾಂ ಯಾವಾದೀನಾಂ ಪ್ರಸಂಗತಃ ನಹಿ ತತ್ ಪಾಠಮಾತ್ರೇಣ ಯುಕ್ತಮಿತ್ಯಾಕರೇ ಸ್ಫುಟಂ ಧಾತ್ವರ್ಥತ್ವಂ ಕ್ರಿಯಾತ್ವಂ ಚೇತ್ ಧಾತುತ್ವಂ ಚ ಕ್ರಿಯಾರ್ಥತಾ ಅನ್ಯೋನ್ಯ ಸಂಶಯ ಸ್ಪಷ್ಟಸ್ತಸ್ಮಾದಸ್ತು ಯಥಾಕರಂ ಅಸ್ತ್ಯಾದಾವಪಿ ಧರ್ಮ್ಯಂಶೇ ಭಾವ್ಯೇಸ್ತ್ಯೇವ ಹಿ ಭಾವನಾ ಅನ್ಯತ್ರಾಶೇಷಭಾವಾತ್ತು ಸಾ ತಥಾ ನ ಪ್ರಕಾಶತೆ ಫಲವ್ಯಾಪಾರಯೋರೇಕನಿಷ್ಠತಾಯಾಮಕರ್ಮಕಃ ಧಾತುಸ್ತಯೋರ್ಧರ್ಮಿ ಭೇದೇ ಸಕರ್ಮಕ ಉದಾಹೃತಃ ಆಖ್ಯಾತ ಶಬ್ದೇ ಭಾಗಾಭ್ಯಾಂ ಸಾಧ್ಯ ಸಾಧನ ರೂಪತ ಪ್ರಕಲ್ಪಿತ ಯಥಾ ಶಾಸ್ತ್ರೇ ಸಘನ್ಯಾದಿಷ್ವಪಿ ಕ್ರಮಃ ಸಾಧ್ಯತ್ವೇನ ಕ್ರಿಯಾ ತತ್ರ ಧಾತು ರೂಪ ನಿಬಂಧನ ಸಿದ್ಧಭಾವಸ್ತು ಯಸ್ತಸ್ಯ ಸಘನ್ಯಾದಿ ನಿಬಂಧನಃ ಸಂಬೋಧನಾಂತಂ ಕೃತ್ವೋರ್ಥಃ ಕಾರಕಂ ಪ್ರಥಮೋವತಿಃ ಧಾತು ಸಂಬಂಧಾಧಿಕಾರ ನಿಷ್ಪನ್ನಮಸಮಸ್ತನನ್ಯ ಯಥಾ ಯಸ್ಯ ಚ ಭಾವೇನ ಷಷ್ಠೀ ಚೇತ್ಯುದಿತಂ ದ್ವಯಂ ಸಾಧುತ್ವಮಷ್ಟಕಸ್ಯಾಸ್ಯ ಕ್ರಿಯೆಯೈವಾವಧಾರ್ಯತಾಂ ಯದಿ ಪಕ್ಷೇಪಿ ವತ್ಯರ್ಥಃ ಕಾರಕಂಚನನ್ಯಾದಿಷು ಅನ್ವೇತಿ ತ್ಯಜ್ಯತಾಂ ತರ್ಹಿ ಚತುರ್ಥ್ಯಾ ಸ್ಪೃಹಿ ಕಲ್ಪನಾ ಅವಿಗ್ರಹಾಗತಾದಿಸ್ಥಾ ಯಥಾ ಗ್ರಾಮಾದಿ ಕರ್ಮಭಿಃ ಕ್ರಿಯಾ ಸಂಬಧ್ಯತೆ ತದ್ವತ್ ಕೃತ ಪೂರ್ವ್ಯಾದಿಷು ಸ್ಥಿತಾ ಕೃತ್ವೋರ್ಥಃ ಕೃತ್ವಾ ತು ಮುನ್ವತ್ಸ್ಯುರಿತಿ ಚೇತ್ ಸಂತಿ ಹಿ ಕ್ವಚಿತ್ ಅತಿಪ್ರಸಂಗೋ ನೋದ್ಭಾವ್ಯೋಭಿಧಾನಸ್ಯ ಸಮಾಶ್ರಯಾತ್ ಭೇದ್ಯಭೇದಕ ಸಂಬಂಧೋಪಾಧಿ ಭೇದ ನಿಬಂಧನಂ ಸಾಧುತ್ವಂ ತದಭಾವೇಪಿ ಬೋಧೋ ನೇಹ ನಿವಾದ್ಯತೆ ಶ್ರೀಲಕ್ಷ್ಮೀ ರಮಣಂ ನೌಮಿ ಗೌರೀ ರಮಣ ರೂಪಿಣಂ ಸ್ಫೋಟ ರೂಪಂ ಯತಃ ಸರ್ವಂ ಜಗದೇತದ್ವಿವರ್ತತೆ. ವಿಲ್ ಸ್ಟಾಪ್ ಹಿಯರ್. ನೆಕ್ಸ್ಟ್ ಕ್ಲಾಸ್ ಇಸ್ ಅಗೇನ್ ಆನ್ ನೆಕ್ಸ್ಟ್ ಟ್ಯೂಸ್ಡೇ. ಐ ಎಮ್ ಗೋಯಿಂಗ್ ಔಟ್ ಆಫ್ ಟೌನ್, ಸೊ ಐ ವಿಲ್ ನಾಟ್ ಬಿ ಏಬಲ್ ಟು ಟೇಕ್ ದ ಕ್ಲಾಸ್ ಆನ್ ಥರ್ಸ್ಡೇ. ಸೊ ನೆಕ್ಸ್ಟ್ ಕ್ಲಾಸ್ ಇಸ್ ಆನ್ ನೆಕ್ಸ್ಟ್ ಟ್ಯೂಸ್ಡೇ, ವಿಚ್ ಇಸ್ 21st. ಧನ್ಯವಾದ.